श्रीगुरुभ्यो नमः हरिः ओम् प्रणम्यां शिरसा देवं गौरीपुत्रं विनायकम् भक्तावासं स्मरे नित्यम् आयुः कामार्थसिद्धये प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् लम्बोदरं पञ्चमं च षष्ठं विकटमेव च सप्तमं विघ्नराजं च धूम्रवर्णं तताष्टकम् नवमं बालचन्द्रं च दशमं तु विनायकम् एकादशं गणपतिं द्वादशं तु गजाननम् द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः न च विघ्नं भयं तस्य सर्वसिद्धिङ्करं प्रभो विद्यार्थे लभते विद्यां धनार्थे लभते धनम् पुत्रार्थे लभते पुत्रान् मोक्षार्थे लभते गतिम् जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् संवत्सरेण सिद्धिं च लभते नात्र संशयः अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् तस्य विद्याद्भवेत् सर्वा गणेशस्य प्रसादतः इति सङ्कष्टनाशनगणेशस्तोत्रं सम्पूर्णम् हरिः ओ